भोज्योन्नं मात्रया पास्यन् श्वपिबन् पीतवानपि द्रवोष्णमनभिष्यन्ति नादिस्निग्धमसङ्करम् उष्णोदकोपचारी स्यात् ब्रह्मचारी क्षपाशयः न वेगरोधि व्यायाम क्रोधशोकहिमातपान् प्रवादयानयानाध्व भाष्यात्यासनसंस्थितिः नीजात्युच्चोबधानाः स्वप्नधूमरजांसि च यान्यहानि पिबेतानि तावन्द्यन्यान्यपि त्यजेत् सर्वकर्म स्वयं प्रायु व्याधिक्षीणेषु चक्रमः